एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। चक्रो रथो यस्य दिव्य कनक भूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातः काले पठेन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनक भूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातः काले पठेन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनक भूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातः काले पठेन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकर। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकर। आदित्य प्रथमं नामं द्वितीयं तु दिवाकर तृतीयं भास्कर प्रोक्तं चतुर्थं तु प्रभाकर पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्य कनकभूषण समे भवतु सुप्रीत पंचहस्तो दिवाकर। आदित्य प्रथमं नामं द्वितीयं तु दिवाकर तृतीयं भास्कर प्रोक्तं चतुर्थं तु प्रभाकर पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। रथो यस्य दिव्य कनक भूषण समे भवतु सुप्रीत पंचहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्यकनकभूषणः समे भवतु सुप्रीत पञ्चहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति। एकचक्रो रथो यस्य दिव्यकनकभूषणः समे भवतु सुप्रीत पञ्चहस्तो दिवाकरः। आदित्य प्रथमं नामं द्वितीयं तु दिवाकरः तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः पञ्चमं तु सहस्रांशु षष्ठं चैव त्रिलोचनः सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः एकादशं त्रयीमूर्ति द्वादशं सूर्य एव च द्वादशादित्यनामानि प्रातःकाले पठिन्नरः दुःखप्रणाशनं चैव सर्वदुःखं च नश्यति।